నిషిద్ధైరప్యేభిర్ లలితమకరంధో మధుకరైః కరైరిందోర అంతశ్చురితైవ సంభిన్నముకులః విధత్తాం సిద్ధిం నో నయనశుభగామస్య సదసః ప్రకీర్ణః పుష్పాణాం హరిచరణయోర్ అంజలిరయం. సప్తమం శ్లోకం పఠామః. అస్త్రజ్వాలా అవలీఢ ప్రతిబల జలదేహే అంతః ఔర్వాయమానే సేనానాథే స్థితే అస్మిన్ మమ పితరి గురౌ సర్వధన్వీశ్వరాణాం కర్ణా అలం సంభ్రమేన వ్రజ కృప సమరం ముంచ హార్దిక్య శంఖాం తాతే చాపద్వితీయే వహతి రణధురం కో భయస్య అవకాశః. ఇదానీ అశ్వత్థామ బహిః ఆగతాన్ సర్వాన్ యోధృన్ దృష్ట్వా వదతి, కిమర్థం భవంతః ఏవం పలాయంతే? మమ పితా సేనాపతిః భూత్వా మహతీం ఇమాం సేనాం నయతి. ఏవం సతి, భవంతః కిమర్థం పరాంగ్ముఖీభూతాః సంతి ఇతి పృచ్చతి. తాతే ఇత్యస్య విశేషణం అస్తి. అస్త్ర జ్వాలా అవలీఢ ప్రతిబల జలధేహే అంతః ఔర్వాయమానే, తద్ సముద్రస్య మధ్యభాగే అంతః విద్యమానస్య అగ్నేః నామ వడవాగ్నిః అథవా వాడవానలః ఇతి. తద్ సముద్రం యథా స్వమర్యాదాం వా పారం ఉల్లంఘ్య న గచ్చతి తథా సముద్రస్య నిగ్రహణం కరోతి ఏషః వాడవాగ్నిః ఇతి. ఇతి అంగీకృతః కవి సమయః. అత్ర శత్రూణాం సేనా ఏవ సముద్రః. అస్య పితా ద్రోణాచార్యః వాడవాగ్నిః ఇవ ఇతి. ప్రతిబల శత్రూణాం సేనా తాం సేనాం నిరోధుం నో చేత్ నిగ్రహీతుం సమర్థః అస్తి మమ తాతః తాదృశే పితరి సతి. అస్త్రజ్వాల, అస్త్రాణి ఏవ జ్వాల. కస్య అస్త్రాణి? ద్రోణాచార్యస్య, అశ్వత్థామనః పితుః ద్రోణాచార్యస్య అస్త్రాణి ఏవ జ్వాల, జ్వాలాః భవంతి. తాభిః అవలీఢ, అవలీఢ ఇత్యుక్తే ఆస్వాదిత అథవా స్పృష్ట. అవలీఢ ప్రతిబల, ప్రతిబల ఇతి శత్రుః, శత్రూణాం సేనా. అత్ర శత్రుః యుధిష్ఠిరః, యుధిష్ఠిరస్య సేనా ఇతి అర్థః. ప్రతిబల ఇత్యస్య యుధిష్ఠిరస్య సేనా. సా సేనా ఏవ జలధిః నామ సముద్రః. తస్య అంతే ఔర్వాయమానః అస్తి ద్రోణాచార్యః. ఏషః ఏవ ఔర్వాయమానే ఇత్యుక్తే ఏషః ద్రోణాచార్యః ఊర్వాగ్నిః ఇవ ఆచరతి ఇతి. వడవాగ్నిః ఇవ ఆచరతి ఇతి. కస్య వాడవాగ్నిః ఇత్యుక్తే జలధేహే, జలధేహే నామ సముద్రస్య, సముద్రస్య అగ్నిః ఇవ ఆచరతి ఏషః ద్రోణాచార్యః. సముద్రః కః ఇత్యుక్తే ప్రతిఫలః ఏవ సముద్రః. ప్రతిఫల నామ శత్రూణాం సైన్యమేవ సముద్రః. అత్ర యుధిష్ఠిరస్య సైన్యం ఇది సముద్రస్య వాడవాగ్నిః అస్తి ద్రోణాచార్యః ఇతి. ద్రోణాచార్యస్య అస్త్రం, అస్త్రాణి ఏవ జ్వాల. ఏవం ద్రోణాచార్యస్య అస్త్రైః స్పృష్టా శత్రుసేనా నామ యుధిష్ఠిరస్య సేనా. అథవా ద్రోణాచార్యస్య అస్త్రైః ఆస్వాదితా ఏషా శత్రుసేనా. సా సేనా ఏవ సముద్రః. తస్య సముద్రస్య వాడవాగ్నిః ఇవ ఆచర్యతే మమ పిత్రా. సర్వం సతిసప్తమ్యాం అస్తి. సేనానాథే సప్తమీ విభక్తిః స్థితే తస్మిన్ మమ పితరి గురౌ. मम पितरी मम ताते सर्व कीदृशे ताते सर्वधन्वीश्वराणां गुरौ सर्वेषां धनुर्धराणां श्रेष्ठः अस्ति मम पिता गुरुः सर्वधन्वीश्वराणां गुरुः मम पिता अस्ति तस्मिन् तादृशे गुरौ मम पितरि मम पिता यदा सेनानाथः अस्ति सेनानाथे स्थिते सेनायाः अधिपतिरूपेण यथा यदा तिष्ठति तदा एवम् अन्वयः करणीयः. प्रथमं विशेषणम् अस्ति और्वायमाने, तद् अस्त्रज्वाल अवलीढ प्रतिबल जलधेः अन्तः और्वायमाने शत्रुसेना इति समुद्रस्य वाडवाग्निरूपेण यथा मम पिता आचरति तदा इति. तद् प्रथमं विशेषणम् अस्ति और्वायमाने इति. द्वितीयं विशेषणमस्ति धन्वीश्वराणां गुरौ सर्वेषां धनुर्धराणां श्रेष्ठस्थाने अस्मिन् मम पितरि एषः मम पिता यदा तिष्ठति तदा इति. तदा सेनानाथे स्थिते सेनानाथरूपेण यदा मम पिता तिष्ठति तदा हे कर्ण अलं सम्भ्रमेण हे कर्ण तव सम्भ्रमेण उद्वेगेन अलं पर्याप्तम् हे कृप समरं व्रज हे कृप युद्धक्षेत्रं गच्छ हार्दिक्यशङ्कां मुञ्च हार्दिक्यम् इत्युक्ते हृदये भवं हार्दिक्यं मनसि विद्यमानां शङ्कां त्यजतु मुञ्च इति कृपं वदति. हे कर्ण सम्भ्रमेण अलम् उद्वेगः मास्तु हे कृप समरं पराङ्मुखी मा भवतु हे कृपाचार्य पराङ्मुखी मा भवतु युद्धक्षेत्रं गच्छतु मनसि विद्यमानां शङ्कां त्यजतु. ताते चापद्वितीये वहति रणधुरं नाम चापद्वितीयाते रणधुरं वहति सति रणधुरम् इत्युक्ते भारः योक् इति अर्थः. अत्र रणधुरम् इत्युक्ते युद्धस्य भारं ताते वहति सति मम पिता वहन् अस्ति. कीदृशः पिता चापद्वितीये चापद्वितीये इत्युक्ते यस्मिन् द्वितीये तस्य विश्वासः अस्ति नाम द्रोणाचार्यः विश्वसिति सः चापः एव नाम तस्य धनुः एव सः चापः एव तस्य द्वितीयः भवति नाम प्रथमं स्वस्य बलं स्वशक्तौ तस्य विश्वासः द्वितीयं स्वस्य चापे तस्य विश्वासः. अतः प्रथमः चापः प्रथमः स्वबलं द्वितीयः स्वचापः अत एव चापद्वितीयः इति एवं धनुः स्वीकृत्य धनुधारी मम पिता तत्र तिष्ठति सति. यदा रणधुरं नाम युद्धस्य भारं वहन् मम पिता मम तातः चापद्वितीयः धनुर्धारी सन् तत्र विद्यमानः अस्ति तत्र तिष्ठति तदा कुतो भयस्य अवकाशः किमर्थं भयस्य अवकाशः किमर्थं भयम् अनुभवन्ति भवन्तः. भयस्य अवकाशः एव अत्र न दृश्यते इति समर्थयितुमेव ताते चापद्वितीये रणधुरं वहति सति इति अत्र काव्यलिङ्ग अलङ्कारः. और्वायमाने इत्यत्र उपमा अलङ्कारः. व्याख्यां पठामः. अस्त्रज्वाला अवलीढ प्रतिबलजलधेः अस्त्राणि आयुधानि ज्वालाः अग्नयः. अत्र अग्नयः इति अस्ति ज्वालाः इति उचितं भवति. अवलीढं व्याप्तं प्रतिबलं शत्रुसैन्यं जलधिः सिन्धुः इव तस्य अन्तः मध्ये और्वायमाने और्वः वडवानलः इव आचरन् और्वायमाणः तस्मिन् शत्रुबल उत्साहनाशके सर्वधन्वीश्वराणां सर्वेषां धन्वीश्वराणां धनुर्धारिणां गुरौ श्रेष्ठे सेनानाते सेनापतौ मम मे अश्वत्थाम्नः पितरी जनके स्थिते अवस्थिते हे कर्ण हे सूर्यपुत्र सम्भ्रमेन अलं सन्देहं मा कुरु कृप हे कृपाचार्य समरं युद्धभूमिं व्रज गच्छ हार्दिक्य हार्दिक्य कृतिका पुत्र कृतवर्म अत्र कृतिका कृतिका पुत्र कृतवर्म इति व्याख्या दत्ता अस्ति हृदये जातं हार्दिक्यम् इत्येव स्वीकृत्य तादृशः प्रयोगः एव अत्र क्रियते अतः हार्दिक्यम् इत्यस्य हृदये विद्यमानां शङ्कां सन्देहं मुञ्च त्यज चापद्वितीये चापं धनुः द्वितीयं सहायं यस्य सः तस्मिन् ताते पितरि रणधुरं युद्धभारं वहति धारयति कः भयस्य भीतेः अवकाशः भीतेः अवकाशः स्थानम् अत्र केवलम् उपमा अलङ्कारः दत्तः अस्ति किन्तु अन्तिमपङ्क्त्यां काव्यलिङ्ग अलङ्कारः यत्र कारणम् उच्यते गृहीतचापः ततः इति अतः अत्र काव्यलिङ्ग अलङ्कारः अपि वर्तते नेपथ्ये कुतो अद्यापि ते तातः कुतः अद्य अपि ते तातः तव तातः कुतः इत्यत्र किमर्थं किमर्थम् अद्यापि तव तातस्य विषये वदन्नस्ति इति नेपथ्यात् श्रूयते इतोपि तातः जीवन् अस्ति इति इव वदति भवान् इति अश्वत्थामा श्रुत्वा किं ब्रूथ कुतो अद्यापि ते तातः इति किं वदन्ति कुतः अद्यापि मे तातः इति सरोषं सकोपं वदति आहा क्षुद्राः समरभीरवः कथम् एवं प्रलभतां वः सहस्रधा न दीर्णम् अनया जिह्वया आहा सः तर्जयति सर्वान् क्षुद्राः नाम क्षुद्रजनाः समरभीरवः युद्धात् भीताः सन्ति भवन्तः युद्धभीरवः कथम् एवं प्रलपताम् अनया जिह्वया एवं प्रलपतां वः युष्माकं कथं न दीर्णम् क्षम्यताम् एवं भवति एवम् एतेन प्रकारेण कुतो अद्यापि ते तातः इति एवं प्रलपतां वः प्रलपतां वः इत्यस्य विशेषणमस्ति प्रलपतां न प्रलापं कुर्वतां प्रलातं कुर्वाणानां भवतां सहस्रधानदीर्णम् अनया जिह्वया एषा जिह्वा सहस्रधानविदीर्णा इतोपि इति पृच्छति एवं किमपि वदन्तः सन्ति भवन्तः यथा इष्टं वदन्ति भवतां जिह्वा कथं न दीर्णा इतोपि न विदीर्णा न नष्टा इतोपि इति पृच्छति इतोपि वदति दग्धुं विश्वं दहनकिरणैः न उदिताः द्वादशार्काः वाता वाता दिशि दिशि न वा सप्तधा सप्तभिन्नाः छन्नं मेघैः न गगनतलं पुष्करावर्तकाद्यैः पापं पापाः कथयत कथं शौर्यराशेः पितुः मे प्रलयकालः यदा भवति तदा एव मम पितुः द्रोणाचार्यस्य अपि नाशः इति दृढं वदति इदानीं प्रलयकालसूचकाः विषयाः केऽपि न दृश्यन्ते अत्र तर्हि कथं भवन्तः एवं वदन्ति इति पृच्छति विश्वं दग्धुम् एतत् लोकं भस्मीकर्तुं दहनकिरणैः दहनकार्यं कर्तुं समर्थैः किरणैः द्वादश अर्काः द्वादशसूर्याः न उदिताः इतोपि न आगताः। प्रलयकाले द्वादशसूर्याः भवन्ति इति ज्ञायते। एवं एतं लोकं दग्धुं भस्मीकर्तुं द्वादशसूर्याः दहनकिरणैः भस्मीकर्तुं स्वस्य अंशुभिः अंशुभिः अथवा रश्मिभिः दहनं कर्तुं द्वादश अर्काः इतोपि न उदिताः न जाताः द्वादशसूर्याः न जाताः। अग्रे वाता वाता दिशि दिशि नवा सप्तधा सप्तभिन्नाः सप्तविध वाताः तत्र ये वाता वाता इति शब्दद्वयं दृश्यते। एका वाता नौन् अस्ति नामपदम् अस्ति, अन्य वाता इति शब्दः वाति इति क्रियापदस्य तप्रत्ययम् इक्तप्रत्ययः वाताः इति। वाताः दिशि दिशि सप्तधा सप्तभिन्नाः न वाताः इति अन्वयः। एवं सप्तवाताः दिशि दिशि सप्तधा भिन्नाः न वाताः इति स्वीकरणीयं। नाम सप्तवाताः नाम सप्तविध मरुतः अथवा वायवः, सप्तधा भिन्नाः सेवन् टैम्स् इति, सप्तधा भिन्नाः सप्तधा विभक्ताः विभक्ताः दिशि दिशि न वाताः सर्वासु दिक्षु न वान्ति। प्रलयकाले एवं सप्तविध मरुतः सप्तधा विभक्ताः सन्तः सर्वासु दिक्षु भवन्ति इति प्रलयकालसूचकः। गगनतलम् एतत् आकाशमण्डलं पुष्करावर्तकाद्यैः अक इति प्रलयकालमेघाः सन्ति। पूर्वमपि एतत् पदं दृष्टमासीत्। पुष्करावर्तकाद्यैः मेघैः गगनतलं न छन्नं, गगनतलम् आकाशमण्डलम् इतोपि न आच्छादितम्। एवं सति हे पापाः हे पापिनः कथयत वदत शौर्यराशेः मे पितुः, शौर्याणां राशिः अस्ति मम पिता। तादृशस्य पापं कथं कथयत। एवं शौर्याणां राशिः अस्ति मम पिता, तादृशस्य मम पितुः पापं नाम मरणरूपं पापं कथं कथयत, कथं वदन्ति भवन्तः इति पृच्छति। तस्य मृत्युः न सम्भवति, कारणम् अयं प्रलयकालः न। यदा प्रलयकालः भवति तदा एवं तस्य मृत्युः अपि सम्भवति इति वदति। व्याख्यां पठामः। द्वादश अर्काः द्वादशसङ्ख्याकाः सूर्याः दहनकिरणैः दाहकरश्मिभिः विश्वं जगत् दग्धुं ज्वालयितुं न उदिताः न निःसृताः सप्तधा भिन्नाः सप्तधा विभक्ताः सप्तवाताः सप्तपवनाः दिशि दिशि सर्वासु दिक्षु न वाताः न प्रचलिताः पुष्करावर्तकाद्यैः पुष्कर आवर्तकादिनाम नामधेयैः प्रलयङ्करैः प्रलयं करोति इति प्रलयङ्करः तैः मेघैः घणैः गगनतलं नभोमण्डलं न छन्नं न आच्छादितं जातं पापाः अयि पापशीलाः शौर्यराशेः शौर्यस्य पराक्रमस्य राशिः आकरः तस्य मे मम अश्वत्थाम्नः पितुः जनकस्य पापम् अघं मरणं नाम मरणरूपपापम् इति अर्थः। कथं किमर्थं कथयत वदत इति अत्र विभावना अलङ्कारः। कारण असत्त्वे कार्यस्य उत्पत्तिः विभावना अलङ्कारः भवति। कारणं विना कार्यस्य उत्पत्तिः यत्र कथ्यते तत्र विभावना अलङ्कारः भवति। अत्र प्रलयकालः इति कारणं नास्ति, तथापि कथं मम पितुः मरणम् इति कार्यस्य उत्पत्तिः उच्यते इति पृच्छति, अतः अत्र विभावना अलङ्कारः भवति। प्रविश्य सम्भ्रान्तः सप्रहारः, इदानीम् अश्वत्थामा सम्भ्रान्तः सन् प्रविशति, सप्रहारः। सप्रहारः इत्युक्ते शरीरे वीर उचितव्रणाः दृश्यन्ते तस्य, सप्रहारः अस्ति अश्वत्थामा। सूतः, सूतः नाम सारथिः। परित्रायतां परित्रायतां कुमारः इति पादयोः पतति। अश्वत्थामा विलोक्य, अये कथं तातस्य सारथिः अश्वसेनः? आर्य आर्य, ननु त्रैलोक्यत्राणक्षमस्य सारथिः असि, किं मत्तः शिशात् परित्राणमिच्छसि? अये कथं तातस्य सारथिः अश्वसेनः? मम पितुः द्रोणाचार्यस्य सारथिः अश्वसेनः कथम् अत्र इति। आर्य, ननु त्रैलोक्यत्राणक्षमस्य, त्रीन् त्रातुं नाम रक्षितुं क्षमस्य, समर्थस्य, योग्यस्य सारथिः असि त्वं। भवान् त्रैलोक्य त्रीन् लोकान् रक्षणं कर्तुं समर्थः अस्ति मम पिता, तादृशस्य मम पितुः भवान् सारथिः अस्ति, किमर्थं मत्तः शिशुजनात्, मादृशात् शिशुजनात्, बालजनात् परित्राणमिच्छसि, रक्षणं वाञ्छसि इति पृच्छति। सूतः उत्थाय सकरुणं, कुतो अद्यापि ते तातः इति यथापूर्वं पुनः वदति। अश्वत्थामा सावेगं, किं तातो नाम अस्तम् उपगतः? नाम अस्तम् उपगतः नाम मरणं प्राप्तः तातः? अश्वत्थामा सावेगम् आवेगसहितं पृच्छति। अस्तं गतः इत्यपि मरणं प्राप्तः इत्येव अर्थः, अस्तम् उपगतः इत्यपि समानमर्थं बोधयति। अस्तम् उपगतः इति कथने इतोपि किञ्चित् पालिश्ड् वे आफ् सेयिङ्ग् मरणं प्राप्तः इति। सूतः अथ किम्? अश्वत्थामा, हा तात इति मोहम् उपगम्य पतितः इति, मूर्छितः सन् पतति अश्वत्थामा। सूतः आगत्य कुमार समाश्वसिः समाश्वसिः इति तस्य आश्वासनं करोति। अश्वत्थामा लब्धसंज्ञः उत्थाय सहस्रम्, इदानीं मोहात् संज्ञां प्राप्य उत्तिष्ठति। सहस्रं नाम अश्रुजलसहितम्, अस्रम् इत्युक्ते अश्रु इति अर्थः, नेत्रजलम् इति। हा तात सुतवत्सल, हा लोकत्रयैकधनुर्धर, हा जामदज्ञा अस्त्र सर्वस्व प्रतिग्रह प्रणयिन्न, क्व असि प्रयच्छ मे प्रतिवचनम्। हा तात सुतवत्सल नाम पुत्रप्रिय, हा लोकत्रयैकधनुर्धरः, लोक त्रयाणां लोकानां विद्यमानः एकः धनुर्धरः, प्रसिद्धः धनुर्धरः इत्यपि अर्थः भवितुमर्हति। लोकत्रयैकधनुर्धर, त्रिषु लोकेषु एकः धनुर्धरः असि त्वं, हे धनुर्धर, जामदग्न्या अस्त्र सर्वस्व प्रतिग्रहण प्रणयिन्न। जामदग्न्यः इति जमदग्नेः पुत्रः जामदग्न्यः परशुरामः, परशुरामस्य अस्त्रसर्वस्वम्, अस्त्रविद्या सर्वाः अपि अस्त्रविद्याः प्रतिग्रहणे प्रियः आसीत्, प्रणयी आसीत् सः, नाम सर्वाः अपि अस्त्रविद्याः ग्रहीतुं तस्य प्रीतिः आसीत्, अतः जामदग्न्य अस्त्रसर्वस्व प्रतिग्रह प्रणयिन् इति तस्य सम्बोधनम्। क्व असि कुत्र असि, प्रयच्छ मे प्रतिवचनं, मम प्रतिवचनं ददातु, मम उत्तरं ददातु। सूतः ஆயுஷ்மன் அலம் அத்தியந்த சோக ஆவேகேன, ஹே ஆயுஷ்மன் சோக அத்தியந்த சோக ஆவேகேன அலம் ஏதாதிருஷேன மகத் மகதா துக்கேன பரியாப்தம் அலம் வீரபுருஷ உசிதாம் விபத்திம் உபகதே பிதரி த்வமபி தது அனுரூபேணையேவ வீரியேண சோகசாகரம் உத்தீர்ய சுகீபவ. வீரபுருஷ உசிதாம் விபத்திம் உபகதே பிதரி, வீரபுருஷாணாம் எது யோக்கியம் எது அனுரூபம் அஸ்தி உசிதா உசிதம் அஸ்தி தாதிருஷீம் விபத்திம் தாதிருஷம் மரணம் பிராப்தவான் உபகதே பிதரி பிராப்தவான் அஸ்தி தவ பிதா ஏவம் சதி ஏவம் வீரபுருஷாணாம் உசிதா கதிஹி யா பவதி தாதிருஷீம் கதிம் பிராப்தவான் அஸ்தி தவ பிதா பவானபி த்வமபி தது அனுரூபேண தாதிருஷம் தாதிருஷஸ்ய வீரஸ்ய அனுரூபம் யதா பவதி ததா தது அனுரூபேண ஏவ வீரியேண ஏதாத்தவ பித்ருவத் வீரபுருஷ உசிதேன வீரேண சோகசாகரம் உத்தீரிய ஏவம் பவதா அனுபூயமானம் இதம் இமம் சோக சமுத்திரம் உத்தீரிய சுகீ பவ சுகம் பிராப்னோது. அஸ்வத்தாமா அஸ்ரூணி பிரமிருஜ்ய நம்ம பிரமிருஜ்ய இத்துக்கே மார்ஜனம் கிருத்வா அஸ்ருஜலசிய மார்ஜனம் கிருத்வா ஆர்ய கதய கதய கதம் தாத்ருக் புஜவீரிய சாகரஹா தாத்தஹாபி நாம அஸ்தம் உபகதஹாம் கதம் தாத்ருக் புஜவீரிய சாகரஹா தாத்தஹா தாத்தஹா கீதிருஷஹா ஆசீத் புஜவீரியா ஆசீத் புஜவீரியா ஏவ சாகரஹா ஆசீத் தஸ்ய தாத்ருக் புஜவீரிய சாகரஹா தாத்தஹா கதம் அஸ்தம் உபகதஹா கதம் சஹா பரணம் பிராப்தவான் இதி பிருச்சதி. கிம் சிஷ்யாத் குருதக்ஷிணாம் குருகதாம் பீமப்ரியா பிராப்தவான் ஸ்லோகஸ்ய சத்வாரஹ பாதாஹ ஏகேகஸ்ய த்வயோஹ பாதயோஹ மத்யே ஏகம் வசனமபி த்ருஷ்யதே. கிம் சிஷ்யாத் குருதக்ஷிணாம் குருகதாம் பீமப்ரியா பிராப்தவான் பீமப்ரியா இது அத்ர பீமஸ்ய பீமஹா பிரியா யஸ்ய சஹா இது பஹுவ்ரீஹி சமாசஹ பீமப்ரியா த்ரோணாச்சாரியாஹ சிஷ்யாத் அத்ர சிஷ்யஹ பீமம் சூசயதி பீமாத் குருதக்ஷிணாம் குருகதாம் பிராப்தவான் கிம் குருதக்ஷிணா இதுக்கு அத்ர குருஹு நாம ஆச்சாரியஹ இதி அர்த்தே குருகதா இதி அத்ர குரு இதுக்கு ப்ரஹத் பிக் இதி அர்த்தே குருதக்ஷிணா ரூபேண குருகதாம் நாம இக மகாந்தம் பிரஹாரம் பிராப்தவான் கிம் ஏகம் தாடனம் பிராப்தவான் கிம் கதையா ஏகம் தாடனம் பிராப்தவான் கிம் இதி பிருச்சதி. நாம மம பிதா பீமப்ரியா த்ரோணாச்சாரியா சிஷ்யாத் பீமாத் குருதக்ஷிணா ரூபேண ஏகம் ஏகாம் மகதீம் கதாமேவ பிராப்தவான் கிம் குருதக்ஷிணா ரூபேண பிராப்தவான் கிம் இது பிருச்சதி. சூதா சாந்தம் பாபம் சாந்தம் பாபம் ந ந அஸ்வத்தாமா அந்தேவாசி தயாலுஹு உஞ்சித தனையேன ஆசாதிதோ ஜிஷ்ணுனா அந்தேவாசி தயாலுஹு உஜ்ஜித நயேன ஆசாதிதா ஜிஷ்ணுனா ஜிஷ்ணுஹு அர்ஜுனா அர்ஜுனஹா கீதிருஷஹ அஸ்தி உஜ்ஜித நயஹ அஸ்தி அர்ஜுனஹா நாம த்யக்த நீதிஹி ஏன நீதிஹி த்யக்தா அஸ்தி தாதிருஷேன அர்ஜுனேன அந்தேவாசி தயாளுஹு மம பிதா த்ரோணாச்சாரியஹ அந்தேவாசி நாம சிஷ்யஹ சிஷ்யேஷு தயாளுஹு அஸ்தி மம பிதா அத்தஹ அந்தேவாசி தயாளுஹு மம பிதா த்ரோணாச்சாரியஹ உஜ்ஜித நயேன ஜிஷ்ணுனா த்யக்த நயேன நீதிஹி अर्जुनेन आसादितः नाम मरणं प्रापितः किम्? अर्जुनः नीतिमार्गं त्यक्त्वा नीतिमार्गात् विचलः भूत्वा मम पितरं मारितवान् किम् इति पृच्छति सूतः. कथम् एवं भविष्यति, एवं कथं सम्भवति, तथा न इति अर्थः. अश्वत्थामा गोविन्देन सुदर्शनस्य निशितं धारापथं प्रापितः. सुदर्शनस्य निशितं धारापथं, सुदर्शनचक्रस्य निशितं तीक्ष्णं धारापथं. धारा इत्युक्ते सुदर्शनचक्रस्य अग्रभागः धारा इति उच्यते. खड्गधारा इत्युक्ते खड्गस्य अग्रभागः, तीक्ष्णः भागः यः अस्ति सः धारा इति उच्यते. धारापथं नाम तस्य तीक्ष्ण अग्रभागस्य मार्गं, सुदर्शनचक्रस्य तीक्ष्ण अग्रभागः स एव मार्गः अस्ति. तं मार्गं गोविन्देन प्रापितः किं? गोविन्देन पिता प्रापितः आसादितः किं? नाम कृष्णः मम पितरं मारितवान् किं? सुदर्शनचक्रं प्रयुज्य कृष्णः मम पितरं, गोविन्दः मम पितरं मारितवान् किम् इति अर्थः. सूतः एतदपि नास्ति, एवं गोविन्देन अपि न मारितः तव पिता. अश्वत्थामा शङ्के न आपदम् अन्यतः खलु गुरोः येभ्यः चतुर्धात् चतुर्थात् अहम्. गुरोः आपदं नाम गुरोः मरणं, मम पितुः मरणम् अन्यतः न शङ्के. अहम् अन्यतः नाम इतरात् अहं न चिन्तयामि. केभ्यः इतरात्? येभ्यः नाम भीम अर्जुन कृष्णेभ्यः, पञ्चमी विभक्तिः. एतेभ्यः चतुर्थात्, चतुर्थात् कस्मात्चित् पुरुषात् अहम् अन्यतः अहं न चिन्तयामि. एते एव मम पितरं मारयितुं समर्थाः स्युः, अन्यतः अहं मम पितुः मरणं न चिन्तयामि. सूतः कुमार एते अपि तस्य कुपितस्य महास्त्रपाणेः किं धूर्झटेरिव तुलाम् उपयान्ति सङ्ख्ये शोक उपरुद्धहृदयेन यदा तु शस्त्रं त्यक्तं तदा अस्य विहितं रिपुणा अतिघोरम्. एते अपि तस्य कुपितस्य महास्त्रपाणेः किं धूर्झटेः इव तुलाम् उपयान्ति सङ्ख्ये. एते तुलाम् उपयान्ति किं? सङ्ख्ये युद्धे एते इति अत्र त्रयः, भीम अर्जुन कृष्णाः, एते त्रयः दूर्झटेः इव नाम शिवः वत् विद्यमानस्य तव पितुः तुलाम् उपयान्ति किं? तुल्यतां प्राप्नुवन्ति किं? नाम युद्धेषु तव पितृतुल्याः भवन्ति किम्? एते नैव भवन्ति इति. एते त्रयः तस्य द्रोणाचार्यस्य, कीदृशस्य द्रोणाचार्यस्य? धूर्झटेः इव महास्त्रपाणेः, शिवः इव महा अस्त्रपाणेः, महान्ति अस्त्राणि यस्य पाणौ सन्ति सः महास्त्रपाणिः भवति. महास्त्रपाणेः द्रोणाचार्यस्य तथापि तन्मात्रं न कुपितस्य अपि, कोपं प्राप्तस्य धूर्झटेः महास्त्रपाणेः इव विद्यमानस्य तस्य द्रोणाचार्यस्य सङ्ख्ये युद्धे तुलाम् उपयान्ति किं? तुल्यतां प्राप्नुवन्ति किं? कथमपि न प्राप्नुवन्ति. एते त्रयः कथमपि द्रोणाचार्यस्य तुलनां न प्राप्नुवन्ति. किन्तु यदा शोक उपरुद्ध हृदयेन शस्त्रं त्यक्तं तदा अस्य अस्य रिपुणा अतिघोरं विहितम्. यदा तु यस्मिन् समये शोक उपरुद्ध हृदयेन शोकेन आक्रमित हृदयेन शस्त्रं त्यक्तं हस्ते विद्यमानं शस्त्रं त्यक्तं आसीत् तदा तस्मिन् समये रिपुणा शत्रुणा अस्य द्रोणाचार्यस्य तव पितुः अतिघोरं विहितम् नाम अतिघोरम् अतिघोरम् इत्यत्र मरणं सूचयति मरणं विहितं सम्पादितं यदा द्रोणाचार्यः शोक आक्रमितहृदयेन शस्त्रं त्यक्तवान् तदा शत्रुः तं मारितवान् इति अर्थः अत्र उपमा अलङ्कारः कारणं दुर्झटेः इव इति उक्तत्वात् शिवतुल्यः द्रोणाचार्यः इति कथनात् अत्र उपमालङ्कारः वर्तते श्लोकस्य अर्थः एवं भवति एते त्रयः भीमार्जुन कृष्णाः शिवतुल्यः अस्ति द्रोणाचार्यः कथमपि तस्य तुलनां न प्राप्नुवन्ति किन्तु यदा द्रोणाचार्यः शोकहृदयेन शस्त्रं त्यक्तवान् तं सन्दर्भम् अवलम्ब्य रिपुः तं मारितवान् इति व्याख्यां पठामः एते अपि इमे अपि कुपितस्य क्रुद्धस्य धूर्जटेः इव शिवस्य इव महास्त्रपाणेः महास्त्रं पाणौ यस्य सः तस्य महास्त्रधारिणः तस्य ते पितुः द्रोणाचार्यस्य सङ्ख्ये युद्धे तुलां समताम् उपयान्ति उपगच्छन्ति किम् इति प्रश्ने यदा यस्मिन् समये तु शोक उपरुद्धहृदयेन शोकेन दुःखेन उपरुद्धं व्याप्तं हृदयं चेतः यस्य सः तेन शस्त्रम् आयुधं त्यक्तं परित्यक्तं तदा तत्काले एव रिपुणा शत्रुणा अस्य एतस्य गुरोः अतिघोरम् अतिभयङ्करं मरणं विहितं कृतम्।